सर्वेषां सम्भाषणसंस्कृतकक्षायां पुनः एकवारं स्वागतम्. आरम्भे अहम् एकं श्लोकं वदामि. उपकर्तुं प्रियं वक्तुं कर्तुं स्नेहमकृत्रिमं सज्जनानां स्वभावोऽयं केनेन्दु शिशिरीकृतः. इत्युक्ते उपकर्तुं प्रियं वक्तुं अकृत्रिमं स्नेहं कर्तुं सज्जनाः कारणं न पश्यन्ति. अत्र सज्जनाः विशेषकारणं विना उपकारं कुर्वन्ति, विशेषकारणं विना प्रियवचनानि वदन्ति, किमपि व्याजं विना निर्व्याजस्नेहं कुर्वन्ति उत्तमाः. किन्तु किमर्थं सज्जनाः एतादृशरीत्या व्यवहारं कुर्वन्ति लोके इति चिन्तनं कुर्मः चेत् तत्र एकमेव उत्तरमस्ति. तत् किम् इत्युक्ते तेषां स्वभावः एव तादृशः. इत्युक्ते तेषाम् एषः एव तेषां स्वभावः. इत्युक्ते अत्र किमपि अन्यत् कारणमेव नास्ति. अत्र कविना एकं सादृश्यम् इत्युक्ते उपमानम् उक्तमस्ति. केनेन्दु शिशिरीकृतः इत्युक्ते इन्दुः इत्युक्ते चन्द्रः, शिशिरीकृतः इत्युक्ते शीतलीकृतः. इत्युक्ते चन्द्रः तु स्वभावतः एव शीतलः, तथा एव सज्जनाः अपि विना कारणं विना व्याजं लोककल्याणार्थम् उत्तमानि कार्याणि कुर्वन्ति. ते उत्तमानि कार्याणि कर्तुमिच्छन्ति. किमर्थं? लोकोपकाराय. ते उत्तमाः सर्वदा लोकोपकारार्थम् उद्युक्ताः भवन्ति. अतः अपि च निर्व्याजस्नेहम् अन्यैः सह कुर्वन्ति. तत्र कारणं किम् इत्युक्ते केवलं तेषां स्वभावः तादृशः. अत्र उत्तमानाम् उत्तमजनानां तुलना अत्र चन्द्रेण सह कृतमस्ति. द कम्पेरिजन् इस् डन् बिट्वीन् चन्द्र एण्ड् द नोबल् पीपल् इति कृतमस्ति. अपि च साधारणतया वयम् एकं पदं शृणुमः, रामचन्द्रः. रामचन्द्रः इत्युक्ते रामः चन्द्रः इव इति अर्थः. तत्र उपमालङ्कारः इति वदामः, सिमिलि, आङ्ग्लभाषायां सिमिलि इति वदामः. तथा एव अत्र अस्मिन् श्लोके उत्तमजनाः चन्द्रेण सह तेषां तुलना कृता. किन्तु अद्य किमर्थम् इमं श्लोकम् अहं स्मारितवती इत्युक्ते अत्र श्लोके उपकर्तुं प्रियं वक्तुं एतानि पदानि सन्ति. इत्युक्ते कर्तुं वक्तुम् एतत् पदद्वयं तुमुन्नन्तं रूपम् इति वदामः. तुमुन् इति एकः प्रत्ययः संस्कृतभाषायां. गते सप्ताहे वयम् अपेक्षया इति एकं नूतनं पदम् अस्माभिः अधीतम्. अपि च तदनन्तरं यत्र तत्र इति पदयुगलमपि अपि अस्माभिः ज्ञातं. तत्र गृहपाठरूपेण किञ्चित् गृहपाठः तु आसीत्, किन्तु अत्र अद्यतन अस्माकं नूतनविषयः अस्ति तुमुन्. तुमुन् इति प्रत्ययः. तत्र तुमुन् प्रत्ययस्य उपयोगं कथं कुर्मः इत्यस्मिन् विषये अद्य वयं चिन्तनं कुर्मः. अधुना गृहपाठविषये किञ्चित् चिन्तनं कृत्वा तदनन्तरं अभ्यासपुस्तकं प्रति गच्छेम. अत्र साईकृष्णमहोदय, भवान् श्रावयति वा वाक्यानि? नास्ति वा? भवतः पार्श्वे नास्ति. अधुना अरुणा भगिनी, भवती वक्तुं शक्नोति वा? अरुणा भगिनी,
मम वाक्य
इत्युक्ते गृहपाठरूपेण अपेक्षया इति पदम् उपयुज्य वाक्यद्वयं लेखनीयम्.
Bhagini, I can also do it. I'm trying to search the document.
Astu. Bhagini, bhavati vadati va? Mochet adhuna prayatnam karoti va?
धनस्य अपेक्षया विद्या बलं भवति.
धनस्य अपेक्षया विद्या,
I don't know what word to use. Vidya is better than dhanam. That's what I wanted to say.
Tadeva vadatu. Astu. Anantram. Tatra kadham vaktavyam ichukte. Dhanasya apekshaya. Vidya. Avashyaki. समीचीनं वाक्यं. विद्या आवश्यकी. अधुना भवती चिन्तयतु, राजेशसिंह महोदय, भवान् वदति वा वाक्यद्वयम् अथवा एकं वाक्यम्?
आं भगिनि, मिष्ठान्नस्य अपेक्षया फलं समीचीनं समीचीनतर.
समीचीनम्. मिष्टान्नस्य अपेक्षया फलं समीचीनं, फलस्य खादनम् उत्तमम्.
ओस्टिन् नगरस्य अपेक्षया न्यूयार्क् नगरं बृहत्.
न्यूयार्क् नगरं कीदृशं नगरं वदतु, कीदृशं
बृहत् नगरं?
बृहत् नगरं बृहत्. उत्तमम्.
शरत्कालस्य अपेक्षया ग्रीष्मकाले कालस्य दिने दीर्घः.
ग्रीष्मकाले दीर्घः.
यत्र पुष्पाणि तत्र भ्रमराः सन्ति.
यत्र पुष्पाणि सन्ति तत्र भ्रमराः आगच्छन्ति एव. उत्तमम्.
यत्र समीचीनं भोजनं तत्र अहमपि अस्मि.
उत्तमम्. अनन्तरं सम्यक् महोदय, वयं सर्वे अपि तथा एव कुर्मः. उत्तमम्.
श्रावदेव.
तावदेव. अरुणा भगिनी, भवती श्रावयतु इतोपि वाक्यानि यत्र तत्र योजयित्वा. भवती श्रुतवती वा गतसप्ताहस्य ध्वनिमुद्रणं भगिनि? अरुणा भगिनि,
धर्म अस्ति यत्र धर्म अस्ति तत्र श्रुतवती वा?
धर्मम्
अस्ति अत्र जनाः सन्तुष्टाः सन्ति.
अत्र धर्मः इति पदमस्ति.
Wherever there is order, people are happy.
आङ्ग्लभाषा मास्तु भगिनि, आङ्ग्लभाषा मास्तु, संस्कृतभाषायां वक्तुं प्रयत्नं करोतु. उत्तमम्. अधुना अत्र वयं पूर्वमेव ज्ञातवन्तः यतो धर्मस्ततो जयः इति सूक्तिः अपि अस्ति, किन्तु भवती किम् उक्तवती इत्युक्ते यत्र धर्मः अस्ति तत्र किं भवति वदतु?
जनाः तुष्टः. जनाः तुष्टाः.
जनाः तुष्टाः. तुष्टाः सन्ति. उत्तमम्. यत्र इतोपि वाक्यानि सन्ति वा? न सन्ति. साईकृष्णमहोदय, भवान् वदति वा?
ऐ डिन्ट् प्रिपेर् भगिनि, सोरि.
अस्तु अस्तु, चिन्ता मास्तु. अत्र तावदेव. अत्र अपेक्षया इति पदं वयं गभीररीत्या तस्मिन् विषये किञ्चित्
भगिनी, ऐ केन् ट्रै वन् सेण्टेन्स् इन् अपेक्षया.
करोतु.
अन्ये कक्षायाम् अपेक्षया लक्ष्मीभगिन्या कक्षया उत्तमम्.
कक्षा इत्युक्ते उत्तमा कक्षा अस्तु उत्तमं महोदय. अनन्तरं वयं किं कुर्मः इत्युक्ते अत्र तुमुन् अद्य तुमुन् प्रत्ययस्य विषये किञ्चित् पश्याम. अत्र तुमुन् इति एकः प्रत्ययः. संस्कृतभाषायां बहवः प्रत्ययाः सन्ति. तुमुन् एकः प्रत्ययः. पूर्वमेव वयं केचन तत्र कांश्चन प्रत्ययान् दृष्टवन्तः. तावत् प्रत्ययः इति वयं पठितवन्तः. अत्र म्यूट् करोमि, ध्वनिः अस्ति, म्यूट् करोमि. अत्र तावत् प्रत्ययस्य विषये किञ्चित् वयम् अधीतवन्तः. तादृशरीत्या एव तुमुन् अपि एकः प्रत्ययः. तस्मिन् विषये वयं पूर्वमेव वयं जानीमः. वयं नित्यं तस्य उपयोगं कुर्मः. कथम् इत्युक्ते अहं संस्कृतकक्षां गच्छामि. किमर्थं गच्छामि? संस्कृतं पठितुं संस्कृतकक्षां गच्छामि. तत्र पठितुम् इति तुमनन्तं रूपम्. अत्र राजर्षि महोदय, भवान् वदतु, भवान् किमर्थं संस्कृतकक्षाम् आगच्छति?
अहं आनयितुं संस्कृतकक्षां ज्ञानवर्धार्थं
ज्ञानवर्धनार्थं किमर्थम् इत्यस्मिन् विषये वयं वर्धनार्थम् इति वक्तुं शक्नुमः. किन्तु अत्र अद्यतनविषयः तु तुमुन् इत्युक्ते अहं संस्कृतं ज्ञातुम् आगच्छामि. ज्ञातुं ज्ञाधातोः रूपं तुमुन्नन्तं रूपं ज्ञातुम् आगच्छामि. तथा एव अत्र अरुणा भगिनी, भवती किमर्थं विद्यालयं गच्छति?
पठितुं विद्यालयं गच्छामि.
उत्तमम्. अहं पठितुं विद्यालयं गच्छामि. अपि च अत्र शायिकृष्णमहोदय, भवान् वदतु, भवान् किमर्थं कार्यालयं गच्छति? आफीस् कार्यालयं किमर्थं भवान् गच्छति? वदतु महोदय, सायकृष्णमहोदय.
अहं कार्यं कर्तुं कार्यालयं गच्छामि.
तावदेव, कार्यं कर्तुं कार्यालयं गच्छामि, तावदेव. तदेव अत्र तुमुन् विषयः. इत्युक्ते यत्र यत्र प्रयोजनमस्ति, प्रयोजनम् अस्ति, तत्र तुमुन् इति पदस्य उपयोगं कुर्मः. किमर्थम् इति प्रश्नं पृच्छामश्चेत् तदा उत्तरं वदामः. तस्मिन् उत्तरे तुमुन्नन्तं रूपं योजयित्वा वदामः. किन्तु अत्र यथा अत्र राजीवसिंहमहोदयः उक्तवान्, ज्ञानार्थं गच्छामि अथवा तादृशरीत्या अपि वक्तुं शक्नुमः. किन्तु यत्र यत्र प्रयोजनम् उद्दिश्य वदामः तत्र तुमुन्नन्तं रूपं योजयित्वा वक्तुं शक्नुमः. किन्तु अत्र अहम् एकं करपत्रं प्रेषितवती. सर्वेषां पार्श्वे तत् करपत्रं स्थापयन्तु. एकवारं तत्र रूपाणि पश्येम. संस्कृतभारत्या निर्मितं करपत्रं, क्रियापदकोष्टकम् इति करपत्रमस्ति. करपत्रं पश्यन्तु. अत्र करपत्रं पश्यामश्चेत् तत्र एकं विषयं वयं समीचीनतया अवगन्तुं शक्नुमः. तत् किम् इत्युक्ते तत्र पश्यन्तु, गतवान् इति भूतकालरूपम् अस्ति, गत्वा इति रूपं क्त्वान्तरूपम् अस्ति. क्तवत् प्रत्ययस्य योजनेन गतवान् इति रूपं सिध्यति. क्त्वा प्रत्ययस्य योजनेन गत्वा इति रूपं सिध्यति. इत्युक्ते तत्र क्त्वान्तरूपं भूतकालरूपम् इव दृश्यते. इत्युक्ते गतवान् गत्वा. किन्तु भविष्यत्कालरूपं गमिष्यति गन्तुम् इत्युक्ते तत्र भूतकालरूपं यथा भवति तथा तुमुन्नन्तं रूपं भवति इत्युक्ते अग्रे गत्वा पश्यन्तु अत्र राजीवसिंह महोदय भवान् पठतु अत्र गतवान् गत्वा तथा पठतु
गतवान् गत्वा गन्तुं
तथा न गतवान् गत्वा गमिष्यति गन्तुं तथा भवति किमर्थमित्युक्ते यदि वयं गतवान् इति रूपं जानीमश्चेत् तत्र क्वान्तरूपं सम्यक्तया अवगन्तुं शक्नुमः गतवान् गत्वा गमिष्यति गन्तुम् अग्रे गत्वा वयं पठिष्यामश्चेत् तत्र पश्यन्तु अग्रे पठतु महोदय
पठिष्यति पठितम्
अग्रे
पतितवान् पतित्वा पतिष्यति पतितुं क्रीडितवान् क्रीडित्वा क्रीडिष्यति क्रीडितुं
अग्रे
उक्तवान् उक्त्वा वदिष्यति वक्तुं
तत्र वक्तुम् इति लिखितमस्ति किन्तु तत्र वच् धातोः रूपं वक्तुं भवति किन्तु अत्र वद् धातोः रूपमेव वदिष्यति अस्ति तत्र विकल्पेन अन्यत् रूपमपि अस्ति उदितुम् इति रूपमपि अस्ति अग्रे पठतु
पीतवान् पीत्वा पाश्यति पातुम्
अत्र स्थगयतु किमर्थं तथा पठनीयम् इत्युक्ते अत्र भूतकालरूपं गतवान् गतवती तादृशानि रूपाणि वयं जानीमश्चेत् क्त्वान्तरूपं सुलभं भवति तथा एव वयं भविष्यत्कालरूपं जानीमश्चेत् तुमन्नन्तं रूपं सुलभं भवति तत्र पश्यतु पीतवान् पीतवती तथा एव पीत्वा इति रूपमस्ति किन्तु वयं भविष्यत्कालरूपं पास्यति इति रूपं जानीमश्चेत् तदा तुमनन्तं रूपं पातुम् इति अवगन्तुं शक्नुमः इत्युक्ते अहं किं वक्तुमिच्छामि अत्र यदि वयं धातोः भविष्यत्कालरूपं जानीमश्चेत् तुमनन्तं रूपं सुलभतया साधयामः भविष्यत्कालरूपं यादृशरीत्या भवति तथा एव तुमुन्नन्तं रूपं भवति अत्र पश्यन्तु ददाति इति क्रियापदमस्ति तस्य क्तवत्वन्तरूपं दत्तवान् दत्तवती किन्तु क्तवान्तरूपं दत्त्वा परन्तु तुमुन्नन्तं रूपं कथं भवति दास्यति दातुं दास्यति दातुं तथा भवति इत्युक्ते तत्र भविष्यत्कालरूपम् इव इत्युक्ते भविष्यत्कालरूपस्य अनुगुणं तुमुन्नन्तं रूपं सिध्यति भूतकालरूपस्य रूपम् इव क्त्वान्तरूपं सिध्यति उत्तमम् अत्र अभ्यासपुस्तके आरम्भे किमस्ति एकवारं पश्येम तदनन्तरम् अत्र रूपाणि एकवारं पुनः पठामः
भगिनि
सर्वे एकवारं वदतु अभ्यासपुस्तकं पश्यतु भगिनि
कुत्र गतवान् कुत्र अस्ति
अहम् एकं करपत्रं प्रेषितवती अत्र सायिकृष्णमहोदय भवान् पठतु अत्र सप्तषष्टितमे पुटे 31.1 भागे
आवरणे विद्यमानस्य क्रियापदस्य उचितं रूपम् उदाहरणवाक्ये इव लिखतु
अत्र एकवारं सर्वेषां पदानां विभक्तिः वचनं लिङ्गं वदतु
आवरणे एकवचनं सप्तमी विद्यमानस्य षष्टि एकवचनं क्रियापदस्य षष्टि एकवचनं उचितं रूपम् उचितम् उचितं रूपम् भगिनि
अत्र पश्यतु उचितं रूपं लिखतु अत्र उचितं रूपं लिखतु इत्युक्ते अत्र
द्वितीयविभक्ति
एकवचनं किन्तु अत्र विशेषणविशेष्यभावः अस्ति अत्र रूपम् इति पदं विशेष्यम् उचित इति पदं विशेषणम्
अस्तु उदाहरणवाक्ये अगेन् सप्तमी विभक्ति इव लिखतु लोट् लकार
उत्तमम् इत्युक्ते अत्र इव इति पदं वयं पूर्वमेव दृष्टवन्तः सादृश्यम् इव इत्युक्ते तादृशं वाक्यम् अत्र उदाहरणत्वेन एकं वाक्यं लिखितमस्ति अस्माकं कृते तादृशरीत्या एव अन्यानि वाक्यानि लेखनीयानि अत्र अहम् एकं वक्तुमिच्छामि विद्यमानस्य इति पदमस्ति अत्र विद्यमान इति पदमस्ति अरुणा भगिनी वदतु कस्मिन् विषये न शत्रन्तन शाणजन्तरूपं शाणजन्तरूपं उत्तमम् इत्युक्ते अत्र संस्कृतभाषायां धातवः द्विप्रकारका अत्र आत्मनेपदिनः परस्मैपदिनः उभयपदिनः तादृशरीत्या धातवः सन्ति आत्मनेपदि धातूनां कृते शाणजन्तरूपाणि भवन्ति परस्मैपदिनां कृते शत्रन्तरूपाणि भवन्ति अत्र विद्यमान इति पदं शाणजन्तपदं किन्तु शाणजन्तपदम् इत्युक्ते किम् अग्रे गत्वा वयं पठिष्यामः चिन्ता मास्तु किन्तु पदं तु शाणच् प्रत्ययान्तरूपं विद्यमान साधारणतया वयं शृणुमः एकं पदं वर्तमानकालः इति वदामश्चेत् तत्र वर्तमान इति पदं शाणजन्तरूपं तथा एव अत्र विद्यमान तत्र धातुः अस्ति विद् धातुः लट्लकाररूपं विद्यते आत्मनेपदि विद्यते इति आत्मनेपदि तस्य पदिनः शाणजन्तरूपं विद्यमान यथा महोदयः उक्तवान् षष्टिविभक्त्यन्तरूपम् एकवचनरूपं दत्तमस्ति इत्युक्ते अत्र सूचना का इत्युक्ते अत्र आवरणे एकं पदं लिखितमस्ति तत्पदं किं क्रियापदम् आवरणे विद्यमानस्य क्रियापदस्य उचितं रूपम् उचितं रूपम् उदाहरणवाक्ये इव लिखतु इत्युक्ते तस्य आवरणे यत् पदं दत्तमस्ति तस्य रूपपरिवर्तनं कृत्वा तस्य तुमुन्नन्तं रूपं लिखितमस्ति महोदय पठतु अग्रे
उदाहरणं रमेशः क्रीडितुं क्रीडति आवरणे क्रीडति क्रीडाङ्गणं गच्छति
अत्र उदा इति लिखितमस्ति उदा इत्युक्ते अत्र कथं वक्तव्यम् अत्र उदा इत्युक्ते उदाहरणार्थम् इति वक्तव्यम् उदाहरणार्थं फर् एक्साम्पल् आङ्ग्लभाषायां तथा वदामः फर् एक्साम्पल् तथा एव अत्र उदाहरणार्थम् एकं वाक्यमस्ति रमेशः क्रीडितुं क्रीडाङ्गणं गच्छति अत्र आवरणे किं पदं दत्तं
क्रीडति क्रीडति
क्रीडति कीदृशं पदम् क्रियापदम् अत्र एक वाक्यम् एकवारं पश्यतु रमेशः किं करोति
रमेशः क्रीडति
रमेश अत्र वाक्यद्वयमस्ति वाक्यद्वयं किमित्युक्ते रमेशः क्रीडति रमेशः क्रीडाङ्गणं गच्छति इति वाक्यद्वयमस्ति, किन्तु वाक्यद्वयस्य मेलनं कृत्वा एकमेव वाक्यं लिखितमस्ति. अत्र रमेशः किं करोति? रमेशः गच्छति. कुत्र गच्छति?
क्रीडाङ्गणं गच्छति.
किमर्थं गच्छति?
क्रीडितुम्.
इत्युक्ते तत्र प्रयोजनं किम्?
टु प्ले,
क्रीडनं. क्रीडनमेव तत्र प्रयोजनं. इत्युक्ते यत्र यत्र प्रयोजनमस्ति तत्र तुमन् प्रत्ययस्य उपयोगं कुर्मः. अत्र क्रीडति इति पदं क्रियापदम् अस्ति, किन्तु तस्य तुमन्नन्तं रूपं क्रीडितुम् इति भवति. इत्युक्ते अत्र किम् अभवत्? अत्र किम् अभवत् इत्युक्ते मध्ये इकारः आगतः.
अस्तु.
अत्र मध्ये किमर्थम् इकारः आगच्छति तस्मिन् विषये बहूनि सूत्राणि सन्ति. इडागमः इति एकः पाणिनिव्याकरणकक्षायां तत्र इडागमः कुत्र कुत्र भवति, इडागमः कुत्र न भवति. इडागमः इत्युक्ते मध्ये इकारः कुत्र आगच्छति कुत्र न आगच्छति इति एकः विषयः व्याकरणे, व्याकरणलोके. अत्र क्रीड् इति धातुः अस्ति, क्रीड् धातोः रूपं क्रीडितुम्. रमेशः क्रीडितुं गच्छति. द्वितीयं वाक्यं करोतु.
उमेशः वस्तूनि आनयति आवरणे, आपणं गतवान्. उमेशः वस्तूनि आनयितुम् आपणं गतवान्.
अत्र रूपं कथं सिद्ध्यति? अत्र आनयति इति रूपमस्ति, आनयति इति क्रियापदमस्ति, किन्तु तस्य तुमन्नन्तं रूपम् अत्र अस्माकं पार्श्वे करपत्रमस्ति, करपत्रे दत्तमस्ति, दृष्ट्वा अपि वक्तुं शक्नोति भवान्. नो चेत् अत्र रूपम् आनेतुम् आनेतुम् इति रूपं भवति.
आनेतुम्
आनेतुं किमर्थमित्युक्ते तत्र आ इति उपसर्गः अस्ति, धातुः नी दीर्घैकारान्तधातुः, नी धातोः रूपम् एव नयति. नी धातोः रूपं लट्लकाररूपं नयति, किन्तु अत्र आ इति उपसर्गः अस्ति. आयोग आ उपसर्गपूर्वकः नी धातुः, तस्य तुमुन्नन्तं रूपं किम् इत्युक्ते आनेतुम्. अत्र पश्यतु एकवारं वाक्यस्य विषये किञ्चित् तस्य अर्थः कः इति चिन्तनं कुर्मः. उमेशः इति एकः पुरुषः, तस्य नाम उमेशः. उमेशः कुत्र गतवान्?
आपणम्.
किमर्थं गतवान्?
वस्तूनि आनयितुम् आनेतुं गतवान्.
वस्तूनि आनेतुं गतवान्. वस्तूनि अत्र रूपं किं महोदय वदतु?
वस्तूनि बहुवचनं वस्त्रं. वस्तु.
अत्र बहुवचनं सम्यक् एव, अन्त लिङ्गं किं तत्र?
नपुंसकलिङ्गं.
उत्तमम् उत्तमं. नपुंसकलिङ्गपदं. तत्र रूपाणि कथं भवन्ति? उकारान्त ह्रस्व उकारान्त नपुंसकलिङ्गपदं. रूपाणि कथं भवन्ति? वस्तु, वस्तूनि, वस्तूनि तादृशरीत्या, तादृशरीत्या प्रथमाविभक्त्यन्तरूपाणि भवन्ति. वस्तूनि इति दत्तमस्ति, अतः बहुवचनरूपमस्ति, किन्तु अत्र द्वितीयविभक्त्याम् अस्ति. किमर्थं चेत् अत्र नीधातुः सकर्मकधातुः अस्ति इति कृत्वा उमेश् वस्तूनि इति पदं कर्मपदम्. अत्र वस्तूनि आनेतुम् आपणं गतवान्. अत्र आपणम् इति पदमपि कर्मपदम्. आपणः प्रथमाविभक्त्यन्तरूपं, किन्तु अत्र गम् धातुः, गम् धातोः रूपमेव गतवान् इति अस्ति. अत्र इत्युक्ते तुमन्नन्तं रूपम् अपि कर्मपदं स्वीकरोति यदि धातुः सकर्मकधातुः अस्ति चेत्. तदर्थमेव अत्र रूपम् उमेशः वस्तूनि आनेतुम् आपणं गतवान्. अत्र सः कार्यद्वयं कृतवान्. सः वस्तूनि आनयति अपि च आपणं गच्छति. आपणं किमर्थम् गच्छति? वस्तूनि आनयितुम् उत्तमम्. अग्रिमं करोतु.
अहं लिखति, आवर्णे लिखति, लेखनीम् आनीतवती. अहं लिखितुं लेखनीम् आनीतवती.
अत्र इत्युक्ते अत्र रूपं ज्ञातव्यं, लेखितुम् इति भवति.
ओ, लेखितुं
इति भवति. अत्र किन्तु अत्र वाक्यं तु आनीतवती इत्युक्ते स्त्रीलिङ्गं पदं लिखितमस्ति. परन्तु यदि भवान् वक्तुम् इच्छति चेत् अहं लेखितुं लेखनीं
आनीतवान् अहं लेखितुं लेखनीम् आनीतवान्
तावदेव. इत्युक्ते अत्र भवान् किमर्थं लेखनीम् आनीतवान्?
अहं लेखितुं लेखनीम् आनीतवान्.
उत्तमम्. अत्र लेखनी, वयं जानीमः लेखनी इति पदमस्ति. अङ्कनी, लेखनी, वयं पूर्वमेव पठितवन्तः दीर्घ ईकारान्तस्त्रीलिङ्गपदम् अस्ति लेखनी. किन्तु अत्र लेखनीम् इति दत्तमस्ति. इत्युक्ते द्वितीयाविभक्त्याम् अस्ति. किमर्थं चेत् तत्र नीधातुः सकर्मकधातुः अस्ति इति कृत्वा लेखनीम् आनीतवती इति लिखितमस्ति. लेखनी किमर्थं लेखितुं? तत्र प्रयोजनं, तत्र कारणं किं, किमर्थं लेखनीम् आनीतवती सा?
लेखितुम्
इत्युक्ते लेखितुम् इति अर्थः. उत्तमं, धन्यवादः महोदय. अनन्तरम् अत्र राजीवसिंह महोदय भवान् करोतु.
जनाः नाटकं द्रष्टुम् इच्छन्ति.
उत्तमं. भवान् कथं ज्ञातवान् तत्र द्रष्टुम् इति वक्तव्यं, कथं ज्ञातवान्?
I saw the...
उत्तमम्. इत्युक्ते अत्र पश्यन्तु, अत्र प्रथमं वाक्यमस्ति क्रीडति. तत्र धातुः क्रीड् इति धातुः, किन्तु तुमुन्नन्तं रूपं क्रीडितुम् इति भवति. तत्र इडागमः, इकारः मध्ये आगच्छति. अनन्तरम् आनयति, तत्र आ इति उपसर्गः अस्ति, नी इति धातुः अस्ति, तत्र आनेतुम् इति भवति. इत्युक्ते तत्र गुणकार्यं भवति. किमर्थं गुणकार्यं भवति, किमर्थं मध्ये इकारः आगच्छति, तेषां विषये सूत्राणि सन्ति. अत्र लिख् इति धातुः अस्ति. लिख् धातुः हलन्तधातुः, इत्युक्ते अन्तिमवर्णः खकारः अस्ति, हल् वर्णः अस्ति, हलन्तधातुः अस्ति. तस्य रूपं लिख् धातोः रूपं किं भवति? लेखितुम् इति भवति. गुणकार्यं भवति तत्र. अत्र किन्तु चतुर्थं वाक्यं पश्यामश्चेत् अत्र क्रियापदं किं? पश्यति. किन्तु पश्यति इत्यस्य तुमुन्नन्तं रूपं किम् इति ज्ञातव्यं. कथं ज्ञातव्यम् इत्युक्ते अत्र धातुः यद्यपि लट्लकाररूपं लट्लकाररूपं पश्यति, किन्तु तत्र धातुः तु दृश्
धातृश्
दृश् दृश् धातोः रूपं द्रष्टुम् इति भवति. तदर्थमेव अहं पूर्वमेव उक्तवती अत्र धातुं तत्र भविष्यत्कालरूपं जानीमश्चेत् तुमुन्नन्तं रूपं सुलभं भवति. तत्र दृश् धातोः पश्यति इत्यस्य भविष्यत्कालरूपं किं कोऽपि वदतु?
द्रक्ष्यति.
उत्तमम्. अत्र लट्लकाररूपं पश्यति किन्तु भविष्यत्कालरूपं द्रक्ष्यति. द्रक्ष्यति भविष्यत्कालरूपं जानीमश्चेत् किञ्चित् ऊहां कृत्वा तुमनन्तं रूपं साधयितुं शक्नुमः. द्रष्टुम् इच्छन्ति. अत्र इतोपि एकः विषयः अस्ति. तुमुन् प्रत्ययान्तरूपं यत्र यत्र प्रयोजनमस्ति तत्र तस्य उपयोगं कुर्मः. अपि च इच्छतेः इच्छति इत्यस्मिन् अर्थे अहं कार्यं कर्तुम् इच्छामि, अहं देवालयं गन्तुम् इच्छामि, अहं कार्यालयं गन्तुम् इच्छामि, अहं चलनचित्रं द्रष्टुम् इच्छामि, अहम् अन्नं खादितुमिच्छामि. तत्र इच्छतेः विषये तत्रापि तुमुन् प्रत्ययस्य उपयोगं कुर्मः. तदर्थमेव अत्र चतुर्थं वाक्यं दत्तमस्ति उदाहरणरूपेण. इत्युक्ते तुमुन् प्रत्ययः कुत्र कुत्र तस्य उपयोगः भवति इति पश्यामश्चेत् यत्र प्रयोजनमस्ति तत्र तस्य उपयोगं कुर्मः, यत्र इच्छतेः विषये इच्छार्थे तत्रापि तस्य उपयोगं कुर्मः. बालकः पठति अथवा बालकः पठनम् इच्छति इति वदामश्चेत् तत्र बालकः पठितुम् इच्छति. अहं संस्कृतकक्ष्यां गन्तुमिच्छामि. अहं मधुरखाद्यानि खादितुमिच्छामि. अहम् अद्य चलनचित्रं द्रष्टुमिच्छामि. तस्मिन् अर्थे अत्र इच्छति तस्मिन् विषये अपि तुमुन् प्रत्ययस्य उपयोगं कुर्मः. तदर्थमेव अत्र एतद्वाक्यं लिखितमस्ति. अग्रे पठतु महोदय.
सः अस्वस्थः अतः कार्यं कर्तुं न शक्नोति.
उत्तमम्. अत्र वाक्यं पश्यतु. सः कीदृशः? सः इत्युक्ते सः पुरुषः, सः बालकः. सः कीदृशः?
अस्वस्थः.
तस्य स्थितिः का इत्युक्ते सः तस्य आरोग्यं सम्यक् नास्ति. सः अस्वस्थः. अतः सः अस्वस्थः इति कारणतः कार्यं कर्तुं न शक्नोति. अत्र अहम् एकं वदामि. अत्र शक्नोति तत्रापि तुमन् प्रत्ययस्य उपयोगं कुर्मः. अहं कार्यं कर्तुं न शक्नोमि, अहं विद्यालयं गन्तुं न शक्नोमि, अहं तादृशरीत्या अपि शक्नोति तत्रापि तुमुन् प्रत्ययस्य उपयोगं कुर्मः. तदर्थमेव अत्र एतद् वाक्यं लिखितमस्ति. सः बालकः अस्वस्थः इति कारणतः सः कार्यं कर्तुं न शक्नोति. अत्र कर्तुं करोति वयं जानीमः, करोति लट्लकाररूपम् आवरणे दत्तमस्ति, किन्तु तत्र तुमुन्नन्तं रूपं कर्तुं तत्र धातुः अस्ति क्रू धातुः. क्रू धातुतः कर्तुं इति रूपं कथम् आगतम् इत्युक्ते तत्र नियमाः सन्ति. नियमाः सन्ति. उत्तमं, धन्यवादः महोदय. अरुणा भगिनी भवती पठति वा अत्र?
सङ्गीतम् आवरणे शृणोति भवान् कुत्र गच्छति? सङ्गीतं श्रोतुं भवान् कुत्र गच्छति?
उत्तमम्. अत्र पश्यतु भगिनि, सङ्गीतम् इति पदं कथं लिखितमस्ति पश्यतु. अत्र अनुस्वारस्य स्थाने किं लिखितमस्ति?
परसवर्ण.
परसवर्णः. परसवर्णः इत्युक्ते अत्र वर्णः कः?
गकार परसवर्ण सम् उपसर्ग योजन योजन गीतं गकार परसवर्णः.
न न, अत्र कथं वक्तव्यम् इत्युक्ते गकारः गवर्गीय अन्तिमव्यञ्जनम्. कवर्गीय अन्तिमव्यञ्जनं ञकारः अनुस्वारस्य स्थाने, तत्र प्रथमतया मकारस्य स्थाने
मोनुस्वारः,
मकारस्य स्थाने अनुस्वारः, अनन्तरम् अनुस्वारस्य स्थाने तत्तत् वर्गस्य अन्ति परसवर्णः अन्तिमवर्णः आगतः. इत्युक्ते यदा वयं सङ्गीतम् इति पदं लिखामः एतादृशरीत्या एव लेखनीयं, सङ्गीतं तादृशरीत्या लेखनीयम्. उत्तमम्. अनन्तरम् अत्र वाक्यस्य विषये एकं चिन्तनं कुर्मः. सङ्गीतं सङ्गीतं शृणोति भवान् कुत्र गच्छति इति वाक्यद्वयम् अस्ति अत्र. अत्र प्रश्नः कः? प्रश्नः कः? भवान् कुत्र गच्छति? प्रश्नः अस्ति. इत्युक्ते भवान् कुत्र गच्छति इति एकः प्रश्नः, किन्तु अहं पृच्छामि भवान् किमर्थं गच्छति? किमर्थं गच्छति?
श्रोतुं.
सङ्गीतं श्रोतुं भवान् कुत्र गच्छति? उत्तमं, तथा एव. अत्र शृणोति इति लट्लकाररूपं, किन्तु तुमुन्नन्तं रूपं श्रोतुं, तत्र धातुः अस्ति श्रु. उत्तमं, श्रुधातुः. उत्तमम्, अजन्तधातुः. श्रुधातोः रूपं श्रोतुम् इति भवति. अग्रिमं करोतु भगिनि.
जलं पिपते आवरणे चषकः आवश्यकः. जलं पातुं चषकः आवश्यकः.
जलं पातुं कः आवश्यकः?
चषकः आवश्यकः.
जलं यदा वयं पातुमिच्छामः तदा चषकस्य आवश्यकता अस्ति एव. चषकः इत्युक्ते किं भगिनि?
चषकः ग्लास्, कप्.
कप् आर् ग्लास्. भवती जलं पातुमिच्छति, तदर्थं चषकस्य आवश्यकता अस्ति एव. अत्र पा इति दीर्घ आकारान्तधातुः, पा इति धातुः. तस्य रूपं लट्लकाररूपं पिबति, तुमुन्नन्तं रूपं किं?
पातुं.
पातुं. धातुः दीर्घ आकारान्तधातुः अस्ति चेत् तस्य रूपं पातुं, पा धातोः रूपं पातुं, दा धातोः रूपं दातुं. दा धातोः लट् रूपं किं?
ददाति.
उत्तमं, ददाति. भवती जानाति. अत्र कोष्टके कानिचन पदानि सन्ति, एकवारं पठतु भगिनि.
उपविशति, विशेषरूपाणि. उपविशति, उपवेष्टुम्. अस्ति, भवति, भवितुम्. गृह्णाति, गृह्णीतुम्. आह्वयति, आह्वातुम्. उत्तिष्ठति, उत्थातुम्, उत्थातुम्. क्रीणाति, क्रेतुम्. पिबति, पातुम्. मिलति, मेलितुम्.
अत्र किमर्थम् एतानि पदानि अत्र दत्तानि वदन्तु, कारणं किम्? अत्र एतानि रूपाणि किमर्थं लिखितवन्तः?
तुमन् प्रत्ययरूपाणि इति लिखितवन्तः.
तुमन् प्रत्ययान्तरूपाणि, अपि च एतानि रूपाणि किञ्चित् भिन्नानि, तदर्थमेव किञ्चित् भिन्नानि. अपि च अत्र पश्यन्तु, विशेषरूपाणि इति दत्तमस्ति. विशेषरूपाणि तदर्थमेव अत्र दत्तमस्ति. वयम् एकमेकं पदं स्वीकृत्य किञ्चित् चिन्तनं कुर्मः. अत्र उपविशति, तस्य रूपं किं भगिनि वदतु?
उपसर्ग विशति क्रियापदं, विशदातु पदस्मैपदी लट्लकार.
उत्तमम्.
तुमन् प्रत्यय योजनेन वृद्धि भवति, विशदातु इकार वृद्धि उपवे स्तुम्.
अत्र वृद्धिः नास्ति, गुणः भवति. उत्तमम्. इत्युक्ते अत्र यथा भगिनी उक्तवती, उप इति उपसर्गः, विश् इति हलन्तधातुः, विश् धातोः रूपमेव विशति लट्लकाररूपम्. उपविशति इति रूपं वयं जानीमः. उपविशति इत्युक्ते बालकः आसन्दे उपविशति. अत्र उपवेष्टुं भगिनी एकं वाक्यं वक्तुं शक्नोति वा? उपवेष्टुं योजयित्वा
चिन्तयामि.
अत्र किञ्चित् ऊहां करोतु. अत्र अस्मिन् प्रकोष्ठे, प्रकोष्ठः इत्युक्ते रूम्, अस्मिन् प्रकोष्ठे बहवः आसन्दाः सन्ति, किमर्थम्?
उपवेष्टुं तत्र तत्र बहूनि आसनानि सन्ति.
आसनानि सन्ति, यदि आसनम् इति वदामश्चेत् बहूनि आसनानि सन्ति. यदि आसन्दः इति वदामश्चेत् अस्मिन् प्रकोष्ठे उपवेष्टुं बहवः आसन्दाः सन्ति, तथा वक्तुं शक्नुमः. उत्तमं भगिनि. अपि च द्वितीयं पदं स्वीकृत्य अत्र कः वदति? राजीवसिंह महोदय, भवान् वदतु.
अस्ति, भवति, भवितुम्.
अत्र अत्र धातुः अस्ति अस् इति धातुः, अस् धातोः रूपं भवितुं, तथा एव भू ऊकारान्तधातुः, दीर्घ ऊकारान्तधातुः अस्ति, तस्य रूपम् अपि भवितुम् एव भवति. अत्र अग्रे गत्वा भवितुम् इति पदं वाक्ये कथम् आगच्छति तस्मिन् विषये अग्रे गत्वा चिन्तनं कुर्मः. अग्रिमं पठतु महोदय.
गृह्णाति, गृह्णीतुं, गृहीतुं,
ग्रहीतुम्. अत्र धातुः अस्ति ग्रहधातुः, किन्तु ग्रहधातोः लट्लकाररूपं गृह्णाति, किन्तु तुमन्नन्तं रूपं ग्रहीतुम्. अत्र कोऽपि वक्तुं शक्नोति वा एकं वाक्यं ग्रहीतुं?
ग्रहीतुं बालकः ग्रहीतुं to hold
पुस्तकानि.
yep.
ग्रहीतुं
वदतु. अत्र कृशः बालकः अस्ति, बालकस्य आरोग्यं सम्यक् नास्ति, तदा किं भवति? सः बालकः पुस्तकानि ग्रहीतुं न शक्नोति.
या पुस्तकं ग्रहीतुं न शक्नोति.
उत्तमम्. अपि च अत्र आह्वयति इति रूपम् अस्ति, अत्रापि आ इति उपसर्गः अस्ति, ह्वे इति धातुः. तत्र तस्य रूपम् आह्वातुम् भवति. उत्तमं महोदय. जान् महोदय, भवान् वदतु अग्रिमं पदं किम्? महोदय अस्ति वा? जान् महोदय, वक्तुं शक्नोति वा? नो चेत् अत्र सुचित्रा भगिनी भवती वदतु. भगिनी सुचित्रा भगिनी
भगिनी
वदतु अत्र विशेषरूपाणि.
रोदितुं शिशुः रोदितुं
न तत् तद् अहं किं वदामि इत्युक्ते अत्र विशेषरूपाणि दत्तानि, अत्र विशेषरूपाणि एकवारं पठतु.
ओके. रोदिति, रोदितुं, रोदितु, रोदित्वान्, रोदितवती, रोदिष्यति.
भगिनी न, तथा न. अभ्यासपुस्तके अत्र 31.1 भागे तत्र विशेषरूपाणि इति लिखितमस्ति. नो चेत् भवती शृणोतु एकवारम्. अधुना चिन्ता मास्तु. साईकृष्णमहोदय, भवान् पठतु अत्र.
भगिनि, आह्वयति, आह्वतुम्, आह्वातुम्,
आह्वयति इति पदस्य तुमनन्तं रूपम् आह्वातुम्. अनन्तरम् उत्तिष्ठति,
उत्तिष्ठति, उत्थातुम्,
उत्थातुम्. तत्र किं भवति इत्युक्ते एकवारं वदामि, अत्र उत् इति एकः उपसर्गः. तत्र धातुः अस्ति स्थाधातुः, स्थाधातोः रूपम् एव स्थातुम् इति भवति. उत्तिष्ठति इत्यस्य रूपम् उत्थातुम्. तत्र स्थाधातुः अकर्मकधातुः, किन्तु अत्र उत्तिष्ठति इत्यस्य तुमन्नन्तं रूपम् उत्थातुम्. अपि च अग्रे पठतु.
क्रीणाति, क्रेतुम्.
अत्र क्रीणाति इत्युक्ते भवान् किम् अवगतवान् क्रीणाति इत्युक्ते?
क्रीणाति
बायिङ्ग्. अत्र धातुः अस्ति क्री धातुः. तत्र संस्कृतभाषायां दशगणाः सन्ति, तत्र नवमगणः अस्ति. नवमगणः, तस्य नाम अस्ति क्रियादिगणः. क्रियादिगणे प्रथमधातुः एव क्रीधातुः. क्रीधातोः रूपमेव क्रीणाति, किन्तु तस्य रूपं क्रेतुं नवमगणः. उत्तमम्. अग्रिमं पदं पठतु.
पिबति, पातुम्.
अत्र धातुः पा धातुः, दीर्घ आकारान्तधातुः, पा धातोः रूपं पातुम्.
अहं
वदतु, एकं वाक्यं वदतु.
अहं दुग्धं पातुम् इच्छामि.
दुग्धं पातुम् इच्छामि. अपि च क्रेतुं योजयित्वा एकं वाक्यं वदतु.
अहं
आपणं गच्छामि. किमर्थं?
फर्गाट् वाट् इस् योर् वेजिटेबल्स्. पाकं क्रेतुम् आपणं गच्छामि.
आपणं
गच्छामि.
सुन्दरं वाक्यम्. शाकं क्रेतुम् अथवा शाकानि क्रेतुम् आपणं गच्छामि, तादृशरीत्या क्रेतुम् इति पदस्य उपयोगं कुर्मः. अन्तिमं पदं किम् अत्र?
अन्तिमं पदं मिलति, मिलति मेलितुम्.
अत्र रूपाणि किञ्चित् भिन्नानि सन्ति इति कृत्वा विशेषरूपाणि नाम अत्र एतानि सर्वाणि पदानि लिखितानि सन्ति. उत्तमम्. अत्र अधुना वयं करपत्रं दृष्ट्वा इतोपि रूपाणि एकवारं पठेम. अत्र सुचित्रा भगिनी, भवत्याः पार्श्वे करपत्रमस्ति वा? न, अहं तुमुन्नन्तरूपाणि इति एकं करपत्रं प्रेषितवती. सर्वेषां पार्श्वे करपत्रम् अस्ति चेत्
नास्ति. मम पार्श्वे नास्ति करपत्रं.
नास्ति चेत् शृणोतु भगिनि.
आं
सुचित्रा भगिनी पठति वा?
आं भगिनि.
गच्छति
गच्छति गन्तिं गन्तुं पठति पठितुं पतति पतितुं क्रीडति क्रीडितुं वदति वक्तुं पिबति पातुं लिखति लेखितुं नयति नेतुं पश्यति दृष्टुं पृच्छति पृष्टुं भवति.
अत्र पश्यतु, अत्र लट्लकाररूपं पृच्छति, किन्तु तुमुन्नन्तं रूपं प्रष्टुं
प्रष्टुं प्रष्टुम्.
अत्र पश्यतु, एकवारं भविष्यत्कालरूपं पश्यतु, प्रक्ष्यति इति अस्ति. इत्युक्ते तुमन्नन्तरूपं समीचीनतया वयं तस्य रूपं साधनं रूपसाधनार्थं भविष्यत्कालरूपं किम् इति एकवारं पश्यामश्चेत् तुमन्नन्तं रूपं सुलभतया साधयामः. अत्र पश्यति इत्यस्य भविष्यत्कालरूपं द्रक्ष्यति, तुमन्नन्तं रूपं द्रष्टुं, तथा एव पृच्छति इत्यस्य भविष्यत्कालरूपं प्रक्ष्यति प्रष्टुम्. अधुना किं किं करोति इत्युक्ते केवलं भविष्यत्कालरूपं पठित्वा तुमुन्नन्तं रूपं पठतु.
आं भगिनि. भविष्यति भवितुं मेलिष्यति मेलितुं त्यक्षयति त्यक्तुं खादिष्यति.
भगिनि तत्र भविष्यत्कालरूपं त्यक्ष्यति
खादिष्यति खादितुं न्यासयति ज्ञातुं करिष्यति कर्तुं श्रोषयति श्रोतुं.
भगिनि अत्र एकवारं वदामि. पूर्वम् अत्र एकं पदमस्ति, ज्ञाधातोः रूपं लट्लकाररूपं जानाति, भविष्यत्कालरूपं ज्ञास्यति तत्र सकारस्य अनन्तरं अकारः नास्ति. ज्ञास्यति स्यति तथा एव अत्र श्रोष्यति दास्यति, तत्र अकारः पुनः तत्र अकारः न आगच्छति. उत्तमं. करोतु.
करिष्यति कर्तुं श्रोष्यति श्रोतुं दास्यति दातुं प्रेषयिष्यति प्रेषयितुं प्रक्षालयिष्यति प्रक्षालयितुं
अत्र पश्यतु प्रक्षालयिष्यति किन्तु तुमुन्नन्तं रूपं प्रक्षालयितुम् अत्र अहम् एकं वदामि अत्र एतत् करपत्रं बहु समीचीनं करपत्रम् अत्र मुद्रणदोषाः न सन्ति इत्युक्ते देर् आर् नो प्रिण्ट् मिस्टेक्स् पर्फेक्ट् करपत्रम् उच्चारणं सम्यक् भवति चेत् वयं सम्यक् रूपं ज्ञातुं शक्नुमः अत्र प्रक्षालयितुं तथा वदतु भगिनि
उत्तासयति उत्तातुम् उत्थातुम् उपवेशयति उपवेष्टुम्
अत्र पश्यतु एकवारं लट्लकाररूपम् उपविशति किन्तु भविष्यत्कालरूपम् उपवेक्ष्यति केवलं वयं लट्लकाररूपं जानीमश्चेत् कुसुमनन्तरूपं रूपसाधनं किञ्चित् क्लेशकरं भवति केवलं लट्लकाररूपं जानीमश्चेत् तुमनन्तरूपं न साधयितुं शक्नुमः किन्तु यदि वयं भविष्यत्कालरूपं जानीमश्चेत् सुलभतया वयं तुमनन्तरूपं साधयामः अत्र उपवेक्ष्यति इति अस्ति तदर्थं तुमनन्तरूपम् उपवेष्टुम् इति भवति उत्तमं धन्यवादः भगिनी अत्र साईकृष्णमहोदय भवान् पठतु अग्रे
भगिनि स्थापयिष्यति स्थापयितुं स्मरिष्यति स्मर्तुम् आगमिष्यति आगन्तुं भविष्यति भवितुं सूचयिष्यति सूचयितुम् एषिष्यति एष्टुम्
अत्र पश्यतु महोदय एकवारम् अत्र लट्लकाररूपं किम्
इच्छति सोरि
इच्छति इत्युक्ते केवलं वयम् इच्छति इति रूपं जानीमश्चेत् तुमनन्तरूपं कथं साधयामः इत्युक्ते तत्र किञ्चित् साध्यं नास्ति इत्युक्ते किञ्चित् कष्टं भवति यदि वयं लृट्लकाररूपम् अथवा भविष्यत्कालरूपं एषिष्यति इति वयं जानीमश्चेत् जानीमश्चेत् एष्टुं वक्तुं शक्नुमः इत्युक्ते वयं पूर्वमेव अभ्यासपुस्तके भविष्यत्कालरूपाणि किञ्चित् पठितवन्तः भविष्यत्कालरूपं जानीमश्चेत् तुमन्नन्तं रूपं सुलभं करोतु
एषिष्यति एष्टुं स्वीकरिष्यति स्वीकर्तुं गृहिष्यति गृहीतुं
अत्र पश्यतु अत्र पश्यतु लट्लकाररूपं गृह्णाति किन्तु गृह्णाति किन्तु अत्र भूतकालरूपं कथं वक्तव्यं गृहीतवान् तथा एव गृहीत्वा इति किन्तु भविष्यत्कालरूपं ग्रहीष्यति ग्रहीतुं तत्र उच्चारणभेदः अस्ति उच्चारणभेद एकवारं श्रावयतु कथम् उच्चारणीयं
गृह्णाति ग्रहीष्यति ग्रहीतुं
इत्युक्ते
गृह्णाति गृह्णातु गृहीतवान् गृहीतवती ग्रहीष्यति गृहीत्वा ग्रहीतुम्
उत्तमं तथा वक्तव्यम् इत्युक्ते तत्र किञ्चित् उच्चारणभेदः अस्ति तत्र गृहीत्वा इति वदामः किन्तु ग्रहीतुं इति वक्तव्यम् इत्युक्ते अत्र गृहीत्वा तत्र गकारस्य अनन्तरम् अचुवर्णः ऋकारः अस्ति किन्तु ग्रहीतुं तत्र गकारस्य अनन्तरं रेफः अस्ति रकारः अस्ति इत्युक्ते हल् वर्णः अस्ति अत्र गृहीत्वा तत्र अचुवर्णः ऋकारः अस्ति किन्तु ग्रहीतुं तत्र रेफः अस्ति रेफः इत्युक्ते हल् वर्णः अरकारः अग्रे करोतु
ग्रहीतुं ग्रहिष्यति ग्रहीतुं रोदिष्यति रोदितुं शक्षयति शक्तुं शक्नोति
अत्र महोदय अत्र शक्षयति इति न वदामः किमर्थं शक्ष्यति अत्र क्षकारस्य अनन्तरं यकारः अस्ति तयोर्मध्ये अकारः नास्ति शक्ष्यति
शक्ष्यति
तावदेव
शक्नोति शक्ष्यति शक्तुं आनेष्य आनेष्यति आनेष्यति आनेतुं क्रेष्यति क्रेतुं निन्दिष्यति निन्दितुम् आह्वास्यति आह्वातुम् आह्वातुम्
उत्तमं तावदेव आह्वातुम् इति रूपमस्ति इत्युक्ते एकवारं वयम् एतानि रूपाणि जानीमश्चेत् अस्माकं कार्यं सुलभं भवति अस्मिन् करपत्रे बहूनि पदानि दत्तानि सर्वे एकवारम् एतत् करपत्रं पुनः पठन्तु अधुना अत्र अहम् एकं वाक्यं वदामि गणेशः गृहे वासं करोति तत्र इच्छति इति पदं योजयित्वा वक्तुमिच्छामश्चेत् पश्यन्तु गणेशः गृहे वासं कर्तुमिच्छति तथा एव अत्र राजवक्षिङ्ग् महोदय भवान् वदति वा गणेशः देहलीं गच्छति
गणेशः देहलीं गन्तुम् इच्छति
सुन्दरं गणेशः देहलीं गन्तुमिच्छति उत्तमं तावदेव तथा एव रामः क्रीडति
रामः क्रीडितुम् इच्छति
उत्तमं रामः क्रीडितुम् इच्छति उत्तमम् अनन्तरं महिला अरुणा भगिनी भवती वदतु महिला आभरणं धरति
महिला आभरणं धरितुम् इच्छति
तत्र धर्तुं धर्तुम् इच्छति अपि च पुरुषः शक्तिं प्रदर्शयति कथं वदामः
पुरुषः किं वदतु
पुरुषः शक्तिं प्रदर्शयति
पुरुषः शक्तिं द्रष्टुम् इच्छति
अत्र पश्यतु अत्र दर्शयति इति निजन्तरूपमस्ति किन्तु पश्यति 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 इति शब्दस्य रूपं द्रष्टुं, किन्तु प्रदर्शयति इत्यस्य रूपं प्रदर्शयितुं.
प्रदर्शयितुं
वदतु एकवारं वाक्यं.
पुरुषः शक्तिं प्रदर्शयितुम् इच्छति.
सुन्दरम्. अपि च गायकः गीतं गायति.
गायकः गीतं गातुम् इच्छति.
सुन्दरम्. माता पाकं पचति.
माता पाकं पक्तुम् इच्छति.
उत्तमम्. एतत् रूपमपि विशिष्टरूपं विशिष्टं रूपम् इत्युक्ते पच् धातोः रूपं पक्तुं, तत्र किञ्चित् भिन्नं रूपम् अस्ति. माता साधारणतया पाकशालां गच्छति. किमर्थं गच्छति पाकशालां?
पक्तुं.
वदतु भगिनि. माता पाकं कर्तुं.
पाकं कर्तुं पाकशालां.
माता पाकं कर्तुं पाकशालां गच्छति. उत्तमम्. अपि च अत्र अहम् अन्यत् वाक्यं वदामि. कोऽपि वदतु. अहं देवालयं गच्छामि. किमर्थं? देवं तत्र गत्वा देवं नमामि. अहं देवालयं गच्छामि, अहं देवं नमामि इति वाक्यद्वयम् अस्ति. अहं देवालयं किमर्थं गच्छामि?
अहं देवं नमितुं देवालयं गच्छामि.
भगिनि, तत्रापि किञ्चित् भिन्नं रूपम् अस्ति. तत्र रूपमस्ति नन्तुं. तत्र नम् धातुः अस्ति. नम् धातोः लट्लकाररूपं नमामि, किन्तु तुमुन्नन्तं रूपं नन्तुम्. अहं देवं नन्तुं देवालयं गच्छामि. अपि च अहम् उद्यानवनं गच्छामि. अहम् उद्यानं गच्छामि. किमर्थं गच्छामि? फलं तत्र गत्वा फलं चिनोमि. फलं चिनोमि. तत्र ची धातुः अस्ति. ची धातोः रूपमेव चिनोमि. वदतु भगिनि.
अहम् उद्यानवनं फलानि चेतुं गच्छामि.
फलानि चेतुं गच्छामि. ची धातोः रूपं चेतुं. किञ्चित् एतानि रूपाणि भिन्नानि रूपाणि. पच् धातोः रूपं पक्तुं, ची धातोः रूपं चेतुं, नम् धातोः रूपं नन्तुं. तथा एव अहं ग्रन्थालयं गच्छामि. किमर्थं ग्रन्थालयं गत्वा? तत्र उत्तमानि पुस्तकानि चिनोमि. तत्रापि वदतु, कोऽपि वदतु.
अहं ग्रन्थालयं कोऽपि ग्रन्थानि
उत्तमानि पठितुम् इत्यपि वक्तुं शक्नुमः. पुस्तकानि पठितुं गच्छामि अथवा उत्तमानि पुस्तकानि चेतुं. चिनोति इत्युक्ते किं भगिनि वदतु? चिनोति. कोऽपि वदतु चिनोति इत्युक्ते?
सेलेक्ट्.
उत्तमं. सेलेक्षन्. चिनोति इत्युक्ते सेलेक्षन्. चिनोति इति पदस्य तुमुन्नन्तं रूपं चेतुं. तावदेव. धन्यवादः भगिनि. इत्युक्ते इदानीं पर्यन्तं वयं यत्र यत्र किञ्चित् वैट् करोमि. यत्र यत्र प्रयोजनमस्ति तत्र तुमुन् प्रत्ययस्य उपयोगं कुर्मः, अथवा अहं किं कार्यं कर्तुं शक्नोमि. अत्र एकमेकं वाक्यं वदामः. अत्र राजीवसिंह महोदय, भवान् वदतु, भवान् किं किं कर्तुं शक्नोति? किं कार्यं कर्तुं शक्नोति भवान्?
अहं टेनिस् क्रीडां क्रीडितुं क्रीडितुं शक्नोमि.
उत्तमम्. क्रीडां क्रीडितुं शक्नोति भवान्. साई कृष्णमहोदय, भवान् वदतु, भवान् किं कर्तुं शक्नोति?
अहं पाकं पक्तुं शक्नोति.
शक्नोमि.
शक्नोमि.
उत्तमं. सुचित्रा भगिनी, भवती वदतु, भवती किं कर्तुं शक्नोति?
अहं संस्कृतं पाठं पठितुं शक्नोमि.
सुन्दरम्. अपि च भवती किं कर्तुम् इच्छति? अत्र तुमन् प्रत्ययः इच्छतेः विषये अपि योजयितुं शक्नुमः. भवती किं कर्तुम् इच्छति?
अहं संस्कृतम् अहं पाकं कर्तुम् इच्छामि.
उत्तमं. पाकं कर्तुम् इच्छति, तथा एव. इत्युक्ते इच्छतेः विषये तस्य उपयोगं कुर्मः. शक्नोति इत्यस्य तत्रापि तुमन्नन्तं रूपं योजयामः. अपि च यत्र यत्र प्रयोजनमस्ति, किमर्थं करोमि एतत् कार्यं, तस्मिन् विषये अपि उपयोगं कुर्मः. अत्र अभ्यासपुस्तके एकः अभ्यासः अस्ति, परिवर्तनाभ्यासः इति अस्ति, तदपि कुर्मः एकवारं. सर्वे अभ्यासपुस्तकं पश्यन्तु. अत्र कृत्वा सः तुमुन्. राजवीसिंह महोदय, भवान् पठतु. अत्र
भगिनी परिवर्तनाभ्यासः
31.12
परिवर्तनाभ्यासः कत्वातः तुमुन. कपिलः ग्रन्थालयं गत्वा ग्रन्थं पठति. परिवर्तनं ग्रन्थं पठितुं ग्रन्थालयं गच्छति.
उत्तमम्. अत्र किं दत्तमस्ति? प्रथमं वाक्यं पश्यामश्चेत् कपिलः, कपिलः इत्युक्ते एकः पुरुषः, सः ग्रन्थालयं गत्वा ग्रन्थं पठति. प्रथमं वाक्यं पश्यामश्चेत् तत्र केवलं क्रमः अस्ति, कार्यस्य क्रमः. इत्युक्ते सः प्रथमतया ग्रन्थालयं गतवान्, तदनन्तरं ग्रन्थं पठितवान्. तत्र केवलं तस्य तत्र क्रियाद्वयमस्ति. पूर्वकालिकी क्रियायाः त्वान्तरूपं योजयामः. केवलं त्वान्तरूपं योजयित्वा तत्र वाक्यं लिखितमस्ति. सः ग्रन्थालयं गतवान्, ग्रन्थालयं गच्छति, तदनन्तरं ग्रन्थं पठति. द्वयोः वाक्ययोः मेलनं कृत्वा वक्तुमिच्छामश्चेत् तत्र सः ग्रन्थालयं गत्वा ग्रन्थं पठति इति भवति. किन्तु द्वितीयं वाक्यं किमस्ति? सः कपिलः ग्रन्थं पठितुं ग्रन्थालयं गच्छति. अत्र प्रयोजनमस्ति. उत्तमं. करोतु, भवान् करोतु वाक्यानि.
गौरी सखीगृहं गत्वा पुस्तकम् आनयति. गौरी पुस्तकम् आनेतुं सखीगृहं गच्छति.
सुन्दरं, सुन्दरं महोदय. इत्युक्ते अत्र गौरी इति एका बालिका, सा सखीगृहं गच्छति, अपि च तत्र गत्वा पुस्तकम् आनयति. अधुना अस्माकं अत्र प्रश्नः कः? गौरी सखीगृहं किमर्थं गच्छति? किमर्थं गच्छति?
पुस्तकम् आनेतुम्.
आनेतुं गच्छति. उत्तमं, तावदेव. अग्रिमं करोतु.
चित्रकारः चित्रं लिखित्वा धनं सम्पादयति. चित्रकारः धनं सम्पादयितुं चित्रं लिखति.
उत्तमं. चित्रं लिखति. अत्र पश्यन्तु, चित्रकारः इति पदमस्ति. चित्रकारः इति पदं समस्तपदं, कम्पौण्ड् वर्ड्. तत्र समासः अस्ति. कथं वक्तव्यं? यः चित्रं करोति सः चित्रकारः. तत्र उपपदसमासः इति वदामः. इत्युक्ते कुम्भं करोति कुम्भकारः. तथा एव अत्र यः चित्रं करोति सः चित्रकारः. तत्र उपपदसमासः इति वदामः. अग्रे गत्वा वयं पठिष्यामः समासः, सन्धयः, एतान् एते सर्वे. अत्र चित्रं लिखित्वा, चित्रकारः चित्रं लिखति. किमर्थं लिखति?
धनं सम्पादयितुं.
धनं सम्पादयितुं चित्रं लिखति.
चित्रं लिखति.
उत्तमं. धन्यवादः. साईकृष्णमहोदय, भवान् पठतु अग्रिमं वाक्यं.
बालिका सम्यक् पठित्वा उत्तीर्णा भवति. बालिका उत्तीर्णा भवितुं सम्यक् पठति.
उत्तमम्. अत्र पश्यन्तु, बालिका उत्तीर्णा भवति. बालिका उत्तीर्णा भवति. अत्र बालिका कथम् उत्तीर्णा भवति? सम्यक् पठनेन, पठति चेदेव उत्तीर्णा भवति. अत्र अत्र भवति भूधातोः रूपं भवति. किन्तु भूधातोः रूपं भवितुं कथं भवति इति अपि यदि भवन्तः व्याकरणकक्षां गच्छन्ति चेत् तत्र अवगन्तुं शक्नुवन्ति. भूधातोः रूपमेव भवितुम् इति भवति. सा बालिका उत्तीर्णा भवितुं पठति.
सम्यक् पठति.
सम्यक् पठति. उत्तमं. करोतु अग्रिमम्.
एषः स्नानं कृत्वा शुद्धः भवति. एषः शुद्धः भवितुं स्नानं करिष्यति.
करोति वा करिष्यति. उत्तमम्. अत्र अरुणा भगिनी, भवती वदति वा उत्तीर्णा इति पदस्य विषये? वदतु किञ्चित्, भवती जानाति चेत्.
न जानामि.
अत्र उत् इति उपसर्गः अस्ति. त्रु इति रूकारान्तधातुः अस्ति. त्रु धातोः क्तान्तरूपं तीर्ण इति अस्ति. क्ताप्रत्ययान्तरूपं तीर्ण. साधारणतया त्रु धातोः लट्लकाररूपं तरति. अहं नदीं, नौकया नदीं तरामि. तत्र तरति, तरामि तादृशानि पदानि त्रु धातोः रूपाणि. दीर्घरूकारान्तधातुः त्रु इति रूकारान्तधातुः, तत्र क्तान्तपदम् उत्तीर्णा स्त्रीलिङ्गरूपम्. किमर्थं? बालिका उत्तीर्णा इत्युक्ते बालिका इति पदस्य विशेषणम् अस्ति इति कृत्वा. उत्तमं. चतुर्थं वाक्यम्. एषः स्नानं करोति. किमर्थं करोति स्नानं?
शुद्धं भवितुं.
शुद्धः भवितुं.
शुद्धः शुद्धं भवितुं.
पश्यतु भगिनी, अत्र भवति इति पदमस्ति. भूधातुः अकर्मकधातुः. तदर्थं भूधातुः अकर्मकधातुः. अतः एषः बालकः, बालकः वा पुरुषः वा किमपि, तत्र कोऽपि, एषः शुद्धः भवितुम् इच्छति. कथं? स्नानं करोति चेदेव सः शुद्धः भवितुं शक्नोति. तदर्थं सः
स्नानं करोति.
शुद्धः भवितुं स्नानं करोति. उत्तमम्. अग्रिमं वाक्यम् अत्र भवती एव करोतु. अग्रिमं वाक्यं समापयामः शीघ्रं.
सम्यक् विचारं कृत्वा कार्यं करोतु. सम्यक् कार्यं कर्तुं विचारं करोतु.
उत्तमम्. अत्र क्रियाद्वयमस्ति, कार्यं करणीयम् अपि च विचारं करणीयम्. प्रथमं किं? विचारं कृत्वा कार्यं करणीयम्. किमर्थम् अत्र किमर्थं विचारः करणीयः?
कार्यं कर्तुम्.
उत्तमरीत्या यदा वयम् उत्तमरीत्या कार्यं कर्तुम् इच्छामः तदा सम्यक् विचारः आवश्यकः. अत्र विचारः इति पदमस्ति, किन्तु यत्र कुत्रापि क्त्वान्तपदमस्ति चेत् तत्र कर्मपदं सिद्ध्यति, स्वीकर्तुं शक्नोति क्त्वान्तपदं. तदर्थमेव कृत्वा, क्रूधातुः सकर्मकधातुः अस्ति इति कृत्वा अत्र विचारम् इति पदं लिखितमस्ति. कार्यं कर्तुं विचारं करोति. सम्यक्. अग्रिमं करोतु.
सा पत्रालयं गत्वा पत्रं प्रेषयति. सा पत्रं प्रेषयितुं पत्रालयं गच्छति.
उत्तमम्. इत्युक्ते सा महिला पत्रालयं गच्छति अपि च पत्रं प्रेषयति. पूर्वं कार्यं किं? पत्रालयस्य गमनं. द्वितीयं कार्यं पत्रस्य प्रेषणम्. किन्तु अत्र किं वक्तव्यं? सा महिला पत्रालयं किमर्थं गच्छति?
प्रेषयितुम् इच्छति तथा गच्छति.
उत्तमम्. सा महिला पत्रं प्रेषयितुमिच्छति, तदर्थं पत्रालयं गच्छति. उत्तमम्. सुचित्रा भगिनी भवती करोतु अग्रिमं वाक्यम्.
उषा लोकयानस्थानकं गत्वा सख्या स्वागतं करोति. उषा सख्या स्वागतं कर्तुं लोकयानस्थानकं गच्छति.
उत्तमं. लोकयानस्थानकम् इत्युक्ते किं?
बस् स्टाप्.
स्टेशन्.
बस् स्टेशन्.
बस् स्टेशन्. उत्तमम्. अत्र सख्याः इति पदमस्ति, तस्य रूपं किं?
षष्टिविभक्ति.
तत्र प्रथमान्तं रूपं किं?
सखी. नदी. नद्या. नद्यौ. नदीनाम्.
उत्तमम्. उत्तमं. सखी इति ईकारान्तपदमस्ति. अत्र महिलायाः नाम अस्ति उषा. सा किं करोति? सख्याः स्वागतं करोति. तदर्थं कुत्र गच्छति? लोकयानस्थानकं गच्छति. लोकयानस्थानकं किमर्थं गच्छति इति प्रश्नं पृच्छामश्चेत् तत्र उत्तरं किम्?
स्वागतं. सख्याः स्वागतं कर्तुं लोकयानस्थानकं गच्छति.
सुन्दरं. तावदेव. अग्रिमं करोतु.
महाभारतं पठित्वा अहम् अनेकाः कथाः जानामि. महाभारतं कथा ज्ञातुम् अहम् अनेकाः सोरि भगिनी महाभारतं अनेकाः कथा ज्ञातुम् अहं पठति. ऐ थिङ्क् ऐ मेड् महाभारतं कथा ज्ञातुम् अहम् अनेकाः अहम् अनेकाः नो भगिनी, महाभारतं ज्ञातुम् अहम् अनेकाः कथा पठामि.
भगिनि अत्र एकवारं भ्रमः मास्तु, डोण्ट् गेट् कन्फ्यूस्ड्. अत्र कार्यद्वयमस्ति. कार्यद्वयं किम्? अहं महाभारतं पठामि, अहम् अनेकाः कथाः जानामि. अत्र वाक्यद्वयमस्ति. अत्र पूर्वकार्यं किं? महाभारतस्य पठनम्. द्वितीयं कार्यम् अनेकानां कथानां ज्ञानम् अस्ति. इत्युक्ते अत्र कार्यद्वयमस्ति इति कृत्वा पूर्वकालिकक्रियायाः क्त्वान्तरूपं योजयामः. तदर्थं महाभारतं पठित्वा अनेकाः कथाः जानामि. यदा अहं महाभारतं पठामि तदानीम् एव अहं बह्व्यः कथाः ज्ञातुं शक्नोमि. अत्र प्रश्नः अस्ति, किमर्थं महाभारतं पठामि? वदतु.
महाभारतं पठितुम् अहम् अनेकाः कथा जानामि.
तथा न भगिनि, तथा न. साईकृष्णमहोदय वदतु अत्र.
अहम् अनेकाः कथा ज्ञातुं महाभारतं पठामि.
तावदेव. अत्र अनेकाः कथाः, तत्र रूपं किम्?
बहुवचनं,
श्रीलिङ्ग.
विभक्तिः का? विभक्तिः का?
प्रथमा बहुवचन.
प्रथमा नास्ति महोदय अत्र. किमर्थम् इत्युक्ते अत्र अरुणा भगिनी वदतु, किमर्थम् अत्र
अनेकाः कथाः?
वदतु. अत्र
स्त्रीलिङ्ग आकार तु स्त्रीलिङ्ग प्रथम बहुवचनं न?
प्रथमा नास्ति भगिनि, द्वितीया. द्वितीया कथं वदामः? लता लते लताः, लतां लते लताः, सीता सीते सीताः.
क्षम्यतां क्षम्यताम्.
इत्युक्ते तथापि वक्तुं शक्नुमः. अथवा अत्र ज्ञाधातुः अस्ति. ज्ञाधातुः सकर्मकधातुः अस्ति इति कृत्वा तत्र कर्मपदं सम्भवति एव. अतः कथाः इति पदं कर्मपदं, द्वितीयाविभक्तिबहुवचनं, स्त्रीलिङ्गपदमस्ति इति कृत्वा अत्र रूपं कथाः. इत्युक्ते आकारान्तस्त्रीलिङ्गपदस्य प्रथमाविभक्तिबहुवचनं, द्वितीयाविभक्तिबहुवचनं समानम्. अत्र धातुः सकर्मकः, ज्ञाधातुः, अतः एव अत्र कथाः इति दत्तमस्ति. अग्रिमं वाक्यद्वयं राजीव् सिङ्ग् महोदय, भवान् करोतु, शीघ्रं समापयामः.
भवान् काश्मीरं गत्वा विहारं करोतु. भवान् विहारं कर्तुं काश्मीरं गच्छति.
अत्र पश्यतु, करोतु लोट्लकाररूपमस्ति. लोट्लकाररूपमस्ति इति कृत्वा वदतु महोदय. साईकृष्णमहोदय,
भवान् विहारं कर्तुं काश्मीरं गच्छतु.
गच्छतु किमर्थं चेत् तत्र वाक्यं लोट्लकारे अस्ति. लोट्लकारस्य उपयोगं कदा भवति? उपयोगः इत्युक्ते आज्ञार्थे अथवा प्रार्थनार्थे. भवान् काश्मीरं गच्छतु अपि च विहारं करोतु. किमर्थं काश्मीरं गच्छतु? विहारं कर्तुम्. उत्तमम्, अन्तिमं करोतु.
सः लेखं लिखित्वा पत्रिकासु प्रकाशयति. सः पत्रिकासु प्रकाशयितुं लेखं लिखति.
उत्तमम्. अत्र पश्यतु, सः सः पुरुषः लेखं लिखति. अत्र लिख् धातुः सकर्मकधातुः, अत्र प्रथमाविभक्त्यन्तरूपं लेखः, लिख् धातोः रूपमेव लेखः. तत्र किं वदामः इत्युक्ते घञ् इति प्रत्ययः अस्ति, घञ् प्रत्ययान्तरूपं लेखः, सः लेखं लिखति. अनन्तरं तत्र अग्रिमं वाक्यं किं, पत्रिकासु प्रकाशयति. पत्रिकासु रूपं किं महोदय?
पत्रिका, पत्रिका स्त्रीलिङ्गं, पत्रिकासु सप्तमी विभक्ति बहुवचनं.
सुन्दरम्, उत्तमं, सप्तमी बहुवचनं पत्रिकासु स्त्रीलिङ्गरूपं. सः पत्रिकासु प्रकाशयति. किं प्रकाशयति? लेखं प्रकाशयति. अत्र लेखं लिखित्वा, अत्र किमर्थं लेखं लिखति सः?
पत्रिकासु प्रकाशयितुं,
पत्रिकासु प्रकाशयितुं. तावदेव. इदानीं पर्यन्तं वयं किञ्चित् अभ्यासं कृतवन्तः. भवन्तः सर्वे कानिचन वाक्यानि, स्वीयवाक्यानि, स्वस्य वाक्यानि, अन्यानि वाक्यानि, तुमन्नन्तरूपाणि योजयित्वा कानिचन वाक्यानि अभ्यासरूपेण लिखन्तु. अपि च अत्र संस्कृतभारत्या निर्मितं करपत्रं पुनः एकवारं पठन्तु. अधुना कालातीतः अभवत्, अत्र स्थगयामः. पुनः अग्रिमे सप्ताहे मिलित्वा इतोपि नूतनानि पदानि ज्ञास्यामः. सर्वेषां धन्यवादः.
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 धन्यवादः भगिनी.